त्वं ननु ध्रुवः ज्ञातः एव एकलः अम्बरबलबाहुधारयन् त्वं हि त्वं सर्वशक्तिमानम्। अचलः त्वं ननु ध्रुवः ज्ञातः एव एकलः अम्बरबलबाहुधारयन् सर्वशक्तिमानम्। अग्नेः त्वं शरः अर्णवस्य शिरः भास्करेण लिखितं तव भाग्यम्। अग्नेः त्वं शरः अर्णवस्य शिरः भास्करेण लिखितं तव भाग्यम्। अवतरसि त्वं कर्मरूपेण प्रत्यहं